यच्छिद्धिते विशो यथा प्रदेव वरुणौ व्रतम् मिनीम सिद्य विद्यवे मानो बधाय हत्नवे जिहीनानस्य रीरधः मा हृणानस्य मञ्जवे विमृळीकायते मनो रथेरश्वन्न सन्दितम् गीर्भिर्वरुणसीमहि पराहि मे विमन्यवः परम् दिवस्य इष्टये वयो न वसति रूप कदा क्षत्रश्रियन्न रमा वरुणम् करामहे मृळीकायो रुचक्षसम् तदित्समानमाशाते वेनम् तान प्रयच्छतः धृतव्रताय दाशुषे वेदायो वीनाम् पदमन्तरिक्षेण पतताम् वेदनावः समुद्रिजाः वेदमासो धृतव्रतो द्वादश प्रजापतः वेदाय उपजायते वेदपातस्य वर्तनि मुरोरश्वस्य बृहतः वेदाये अध्यासते निशसादधृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतोः अतो विश्वान्यद्भुताति गत्वा अभिपश्यते कृता निजा च कर्त्वा स नो विश्वाः सुक्रतुरादित्यः सुपथाकरत् प्रण आजोऽंशितारिषत् बिभ्रद्रापिम् हिरण्यजम् वरुणोऽवस्थनिर्णिजम् परिस्पशो निषेदिरे नयम् दिप्सन्ति दिप्सवो न द्रुह्वा नो जनानाम् न देवमभिमातयः उतयो मानुषेष्वायशश्चक्रे असाम्या अस्माकमुदरेष्वा परा मे जन्ति धीतयो गावो न गव्यो तीरनो इच्छन्ति रुरुचक्षसम् सन्नवो चावहै पुनर्यतो मे मध्वाभृतम् होते भक्षदसे प्रियम् दर्शन् विश्वदर्शतम् दर्शम् रथमधिक्षमे एतादुशतमे गिराः इमम् मे वरुणश्रुधेहवमद्या च मृळय त्वामभस्युराचके त्वम् विश्वस्य मेधिरधिमश्चग्मश्च राजसे स यामनिप्रतिश्रुधे उदत्तमम् ममुग्धिनो विपाशम् मध्यमम् श्रुता अवाधमानि जीवसे